इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द शर्मा। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य नवदेहल्यां राय पिथोरा सांस्कृतिक परिसरे भगवता बुद्धेन सम्बद्धस्य भव्य पिपराहवा स्मारकस्य उद्घाटनं विदध्यात्। संचारतन्त्रपटले प्रधानमन्त्री श्रीमोदी ख्यापितवान् यत् अद्य इतिहास संस्कृति भगवतः बुद्धस्य आदर्शैः सह अनुरागधारिणां कृते महत्वपूर्णः दिवसः। श्रीमोदी प्रोक्तवान् यत् एतस्यां प्रदर्शन्यां शताधिक समयात् पुनरानीतैः पिपराहवा अवशेषैः सह नवदेहल्याः राष्ट्रिय संग्रहालये अथ कोलकातायाः भारतीय संग्रहालये च संरक्षित पिपराहवा सम्बद्धानां प्रामाणिक अवशेषाणां पुरातात्विक सामग्रीणाञ्च प्रदर्शनं स्यात्। श्रीमोदी ख्यापितवान् यत् एषा प्रदर्शनी भगवतः बुद्धस्य महतां विचाराणां लोकप्रियकरणस्य शासनस्य प्रतिबद्धतानुरूपं वर्तते। मन्त्रिमण्डल सचिवः टीवी सोमनाथन इत्यसौ प्रोक्तवान् यत् प्रधानमन्त्रिणः सक्रिय शासनाय समयबद्ध कार्यान्वयनाय च अग्रणी मञ्चेन प्रगति इत्यनेन परियोजनानां कल्याणकारी योजनानाञ्च कार्यान्वयने तीव्रता समागता। नवदेहल्यां प्रगति प्रणाल्याः परिणामविषये वार्ताहरान् सम्बोधयन् श्रीसोमनाथन इत्यसौ ज्ञापितवान् यत् साम्प्रतं यावत् प्रगति सम्बद्धानि 50 उपवेशनानि समायोजितानि। एतदन्तर्गतञ्च 85 लक्षकोटिमिताः 3,000,000,000 परियोजनाश्च समीक्षिताः। असौ ज्ञापितवान् यत् एकराष्ट्र एकराशन कार्ड अथ पीएम जन आरोग्य सदृशाः 61 मिताः शासनीय योजनाः साम्प्रतं यावत् समीक्षिताः।
प्रगति का उद्देश्य केंद्र तथा केंद्र राज्य समन्वय को बेहतर बनाना है, ताकि उन महत्वपूर्ण अवसंरचना परियोजनाओं को तेजी से आगे बढ़ाया जा सके जो विभिन्न समस्याओं और बाधाओं का सामना कर रही हैं।
इलेक्ट्रॉनिक्स यंत्रांश निर्माण योजनायाः तृतीय भागस्य अन्तर्गतं 22 नूतन प्रस्तावः केन्द्रेण अनुमोदितः, यस्मिन् 63,841,000,000 रूप्यकाणां परिकल्पितः निवेशः अन्तर्भवति। एतेषु अनुमोदनेषु मोबाइल निर्माणं, दूरसंचारं, उपभोक्तृ इलेक्ट्रॉनिक्स, व्यूहात्मक इलेक्ट्रॉनिक्स, ऑटोमोटिव, आईटी हार्डवेयर इत्यादीनां 11 लक्षखण्ड उत्पादानां निर्माणं अन्तर्भवति। एतानि परियोजनानि 58,000,000–2,00,000 कोटिरूप्यकाणां उत्पादं जनयितुं प्रायः 34,000 प्रत्यक्ष कार्यस्थानानि जनयितुं च अपेक्षन्ते। भारतीय ऋतुविज्ञान विभागेन अद्य दिल्ली, हरियाणा, पंजाब, ओडिशा, राजस्थान, चंडीगढ़ इत्येतेषु प्रदेशेषु अति निहारच्छादनं भविष्यतीति अनुमानं प्रकटितम्। बिहार, हिमाचल प्रदेश, जम्मू कश्मीर, लद्दाख इत्येतेषु प्रदेशेषु अग्रिमेषु 3 दिनेषु निहारच्छादनस्य पूर्वानमपि भारत ऋतुविज्ञान विभागेन प्रकटितम्। अस्य मासस्य 6 दिनांकपर्यन्तं उत्तरप्रदेशे, उत्तराखण्डे, पश्चिमवंगदेशे, सिक्किम राज्ये, उत्तर पूर्व राज्येषु च एतादृशी एव स्थितिः प्रवर्तते इति अनुमानं प्रकटितम्। अन्ते च क्रीडा वार्तासु। महिला हॉकी इंडिया लीग प्रतिस्पर्धायां रांची रॉयल्स इत्येतेन दलेन जेएसडब्ल्यू सूरमा हॉकी क्लब इति दलं 2-0 इत्यंतरालेन पराजितम्। रांची नगरे मरांग गोमके जयपाल सिंह मुंडा टर्फ क्रीडांगणे समायोजिते द्वंद्वे एतस्मिन् ऋतुजा दादासोपिताल अथ साक्षी राणा इत्येताभ्यां 2 गोलांकाः समर्जिताः इति वार्ताः।